इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। पूर्व लद्दाख प्रदेशस्य देप्सांग देमचोक प्रदेशयोः भारत चीन देशयोः मध्ये वास्तविक नियंत्रण रेखायां विघटन प्रक्रिया सार्ध चतुर्वर्षाणां सैन्य गतिरोधस्य अनन्तरं सम्पन्ना अभवत्। झारखंड राज्ये विधानसभा निर्वाचनस्य द्वितीय चरणस्य नामांकन पत्राणां परीक्षणं अद्य सुसम्पन्नम्। दीपावली छठोत्सवावसरयोः यात्रिणां जनसम्मर्दं निवारयितुं भारतीय रेलयान प्राधिकरणं सहस्रशः विशिष्ट रेल यानानि चालयति। सम्पूर्णे देशे दीपावली पर्वणः उत्साहस्य च तरंगः प्रवहति। अपि च हेलो ओपन बैडमिंटन क्रीडायां मालविका बंसोडः रक्षिता रामराजा च द्वितीये क्रीडाचक्रे प्राविशताम्। अथ वार्ताः विस्तरेण। पूर्व लद्दाख प्रदेशस्य देप्सांग देमचोक प्रदेशयोः भारत चीन देशयोः मध्ये वास्तविक नियंत्रण रेखायां विघटन प्रक्रिया सार्ध चतुर्वर्षाणां सैन्य गतिरोधस्य अनन्तरं सम्पन्ना अभवत्। सेनायाः सूचना सूत्रानुसारं स्थानीय सेनापति स्तरे वार्तालापः निरन्तरं भविष्यति। सीमायां सुरक्षान्वीक्षण कार्यमपि शीघ्रमेव पुनः आरभ्यते यत् अस्मिन् प्रदेशे सामान्य स्थितिं पुनः स्थापयितुं महत्वपूर्णः पदक्षेपः अस्ति। झारखंड राज्ये विधानसभा निर्वाचनस्य द्वितीय चरणस्य नामांकन पत्राणां परीक्षणम् अद्य सुसम्पन्नम्। अस्य चरणस्य कृते 34,600 अभ्यर्थिनः नामांकनं कृतवन्तः। द्वितीय चरणे नवंबर मासस्य 20 दिनांके 38 निर्वाचन क्षेत्रेषु मतदानं भविष्यति। अभ्यर्थिनः श्वः यावत् नामांकनं निराकर्तुं शक्नुवन्ति। प्रथमस्य चरणस्य निर्वाचनस्य प्रत्याशी प्रत्याहार प्रक्रिया अद्य समाप्ता। 43,700 प्रत्याशिनः स्पर्धायां सन्ति। नवंबर मासस्य 13 दिनांके प्रथम चरणस्य निर्वाचने 43 निर्वाचन क्षेत्रेषु मतदानं 23 दिनांके च मतानां गणना भविष्यति। दीपावली छठोत्सवावसरयोः यात्रिणां जनसम्मर्दं निवारयितुं भारतीय रेलयान प्राधिकरणं सहस्रशः विशिष्ट रेलयानानि चालयति। यात्रिकाणां सौख्यार्थं रेलयान विभागः गतवर्षस्य अपेक्षया अस्मिन् वर्षे 25,000+ अतिरिक्त रेलयानानि चालयति। सद्यः एव रेलमंत्री अश्विनी वैष्णवः अघोषयत् यत् गतवर्षे संचालितानां 500+ रेलयानानां अपेक्षया अस्मिन् वर्षे विशेष रेलयानानां संख्या 7,000 यावत् वर्धिता। एतानि विशिष्टानि रेलयानानि प्रतिदिनं प्रायः 2,00,000 अतिरिक्तान् यात्रिकान् वोढुं शक्नुवन्ति।
इस साल 7,000 ट्रेन्स रन की जा रही है छठ और दीपावली के लिए स्पेशल ट्रेन्स, यानी करीब करीब 2,00,000 लोग एक्स्ट्रा डेली ट्रेवल कर पाए वो व्यवस्था की जा रही है ओवर एंड अबव दी नॉर्मल ऑल दी ट्रेन्स विच आर देयर इन दी टाइम टेबल।
उत्सवेषु यात्रिकानां महत् जनसम्मर्दं प्रभाविरूपेण निवारयितुं रेल संस्थया अनेकानि कार्याणि कृतानि सन्ति। यात्रिकाणां आवश्यकतां पूरयितुं स्वचालित टिकेट यन्त्राणि परिपृक्षा केन्द्राणि भोजन सेवाः पेयजलं चल शौचालयं च स्थापितानि सन्ति। रेलस्थानकेषु सौकर्याणां विषये कथयन् उत्तर रेलवे इत्यस्य मुख्य जनसम्पर्कः अधिकारी हिमांशु शेखर उपाध्यायः अवदत् यत् जनसमूहस्य निर्वहणार्थं रेलसंस्थया अनेकाः व्यवस्थाः कृतानि सन्ति। कस्यापि अप्रिय घटनायाः निवारणार्थम् आरक्षितानाम् अनारक्षितानां च यात्रिकाणां कृते पृथक् प्रवेशद्वाराणि स्थापितानि सन्ति इति सः अवदत्। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। यथा यथा दीपावली पर्व समीपम् आगच्छति तथैव सम्पूर्णे देशे उत्सवस्य उत्साहस्य च तरंगः प्रवहति। आपणकेन्द्राणि क्रेतृभिः संकीर्णानि भवन्ति, वीथ्यः विविधैः जीवन्तालङ्करणैः प्रकाशिताः भवन्ति, गृहाणि च वर्णरञ्जित रङ्गोलिकाभिः अलङ्कृतानि भवन्ति। उत्तरप्रदेशे अयोध्यायाम् अद्य दीपावल्याः पूर्वसन्ध्यायां भव्यः दीपोत्सवः आयोज्यते। राममन्दिरस्य अभिषेकसमारोहस्य अनन्तरम् अयोध्यायाम् एषः प्रथमः दीपोत्सवः भविष्यति। उत्तरप्रदेशसर्वकारः अद्य रामकीपैणीं समेत्य अयोध्यायाः पञ्चपञ्चाशत् घाटस्थलेषु पञ्चविंशतिलक्षाधिकानि दीपानि प्रज्वाल्य सप्तमं गिनीस वर्ल्ड रिकॉर्ड इत्यस्य लक्ष्यं स्वीकरिष्यति। केन्द्रीय संस्कृति पर्यटन मंत्री गजेन्द्र सिंह शेखावतः, मुख्यमंत्री योगी आदित्यनाथः, अन्ये च मन्त्रिणः अस्मिन् कार्यक्रमे भागं ग्रहीष्यन्ति। दीपावल्याः अवसरे राजस्थाने अपि विविधानां गतिविधीनां कोलाहलं प्रचलति। अद्य सम्पूर्णे राज्ये रूपचतुर्दशी आचर्यते। भक्ताः विभिन्नेषु पवित्रस्थानेषु जलाशयेषु तडागेषु च पवित्रं निमज्जनं कृत्वा धनस्य समृद्धेः च प्रार्थनां कुर्वन्ति। पारम्परिकाः रङ्गोलीमण्डना च अनेकेषु स्थानेषु आकर्षणस्य केन्द्राणि सन्ति। तमिलनाडुराज्ये दीपावली उत्सवस्य कृते सर्वाः सज्जाः प्रगतिपथि सन्ति। उत्सवे मूलस्थानानां यात्रा अन्तर्भवति इति कारणात् राज्यपरिवहनविभागेन जनानां राज्य स्वामित्व बस यानेन यात्रार्थम् अनेकाः व्यवस्थाः कृताः सन्ति। केरलराज्ये अद्य पञ्च नवनिर्वाचिताः अतिरिक्त न्यायाधीशाः केरल उच्च न्यायालये शपथवचनं स्वीकृतवन्तः। निर्वाचिताः न्यायाधीशाः सन्ति पी कृष्णकुमार, केवी जयकुमारः, एस मुरलीकृष्णः, जोबिन सेबेस्टियन, पीवी बालकृष्णनः च। अद्य प्रातः उच्चन्यायालये आयोजिते कार्यक्रमे केरल उच्चन्यायालयस्य मुख्यन्यायाधीशः नितिन जामदारः इत्येषः नूतनान् न्यायाधीशान् पदस्य शपथवचनं ग्राहयित्वान्। सद्यः एव नूतनानां न्यायाधीशानां नियुक्त्या केरल उच्चन्यायालयस्य न्यायाधीशानां संख्या समेध्य पञ्चचत्वारिंशत् यावत् वर्धिता अस्ति। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् नवान्वेषणस्य तथा तन्त्रज्ञानस्य विषये भारतीययुवकाः सर्वोत्तमेषु सन्ति। श्रीमोदी गिट्हब इत्यस्य प्रमुखस्य थॉम्स डोम्केवर्यस्य सामाजिकमाध्यमेन लिखितं सन्देशं प्रचारयति, यस्मिन् भारतीययुवकानां प्रशंसा कुर्वता थॉमस वर्येण लिखितमस्ति यत् भारतं विश्वे द्रुतगत्या वर्धमाना विकासकर्त्री जनसंख्या अस्ति। श्री डोमके वर्यः अवदत् यत् भारतस्य युवकाः इतोपि अधिकं प्रगतिम् अकुर्वन्, तथा च कृत्रिमबुद्धि इत्यस्य निर्माणे कृत्रिमबुद्धेः उपयोगः कुर्वन्तः सन्ति। सः अवदत् यत् भारते सार्वजनिक उत्पादक कृत्रिमबुद्धिमता परियोजनानां कृते द्वितीयं सर्वाधिकं योगदानं भवति। गाजापट्टी क्षेत्रे स्थायी युद्ध विरामस्य स्थापनार्थं कस्यापि सन्धिं विचारान्वा प्रति हमास मुक्तता प्रकटयति। हमासस्य एकः वरिष्ठः अधिकारी यः अवदत् यत् सन्धिपत्रेषु अथवा विचारेषु सम्पूर्ण गाजापट्टी क्षेत्रात् इज़राइली सेनायाः निष्कासनं, अवरोधानां निस्सारणं, उपशमनस्य समर्थनस्य आश्रयस्य च व्यवस्था, अपि च निगडितानां विनिमयस्य व्यवस्था च अन्तर्भवति इति। अपरपक्षे इजिप्ट देशस्य राष्ट्रपतिः अब्देल फताह अल सिसी इत्येषः रविवासरे पैलेस्टीनी बन्धकानां कृते चतुर्णां इज़राइल बन्धकानां विनिमय रूपेण गाजा देशे द्विवार्षिकस्य युद्ध विरामस्य प्रस्तावम् अघोषयत्। अस्मिन् विषये विगतमासेषु दोहा कैरो नगरयोः अनेकेषु चरणेषु वार्ताः कृताः सन्ति, परन्तु वर्षैकस्य संघर्षस्य समाप्त्यर्थं कामपि गम्भीरं सन्धिं निर्मातुं च निर्णयो न अभवत्। जर्मनी देशे प्रवर्तमाने हेलो ओपन बैडमिंटन क्रीडायां मालविका बंसोडः, रक्षिता रामराजः च द्वितीये क्रीडाचक्रे प्राविशताम् इति वार्ताः।